श्रीमद्भागवत महापुराणम् दशमस्कन्धः अथ सप्तचत्वारिंशोऽध्यायः श्रीशुक उवाच तं वीक्ष्य कृष्णानुचरं व्रजस्त्रियः प्रलम्ब बाहुन्नवकैजलोचनम् पीताम्बरं पुष्करमालिनल्लसन् मुखारविन्दं मणिमृष्टकुण्डलम् शुचिस्मितः कोऽयमपीच्य दर्शनक् कुतश्च कस्याच्युतवेशभूषणः इति स्म सर्वाः परिववृरुत्सुकास्तमुत्तमश्लोकपदाम्बुजाश्रयम् तं प्रश्रयीणावनता सुसत्कृतम् सव्रीडहासीक्षणसूनृतादिभिः रहस्य पृच्छन्नुपविष्टमासने विज्ञाय सन्देशहरं रमापतेः जानीमस्त्वाय यदुपते पार्षदं समुपागतम् भर्त्रेह प्रेषितः पित्रो भवान् प्रियचिकीर्षया अन्यथा गोव्रजे तस्य स्मरणीयन्न चक्ष्महे स्नेहानुबन्धो बन्धूनां मुनीरपि सुदुस्त्यजः अन्येष्वर्थकृता मैत्री यावदर्थविडम्बनम् पुंभिस्त्रीषु कृता यद्वत् सुमनस्विव षट्पदैः निःस्वन्त्यजन्ति गणिका अकल्पन् द्रुपतिं प्रजाः अधीतविद्याचार्य मृत्विजो दत्तदक्षिणम् खगावीतफलं वृक्षं भुक्त्वा चातिथयो गृहं दग्धं मृगास्तथारण्यै जारो भुक्त्वा रतां स्त्रियम् इति गोप्यो हि गोविन्दे गतवाकाय मानसाः कृष्णदूते व्रजय्याति उद्धवे त्यक्तलौकिकाः गायन्त्यः प्रियकर्माणि रुदत्यश्च गतह्रियः तस्य संस्मृत्य संस्मृत्य यानि कैशोरबाल्ययोः काचिन्मधुकरं दृष्ट्वा ध्यायन्ती कृष्णसङ्गमम् प्रियप्रस्थापितं दूतम् कल्पयित्वेदमब्रवीत् गोप्युवाच मधुपकितव बन्धो मा स्पृशाङ्घ्रिं सपत्न्याक् कुचविलुलितमाला कुङ्कुमश्मश्रुभिर्नः वहतु मधुपतेस्तन् मानिनीनां प्रसादये यदु सदसि विडम्ब्यै यस्य दूतस्त्वमीदृक् सकृदधरसुधां स्वां मोहिनीं पाययित्वा सुमनस इव सद्यस्तत्यजेस्मान् भवादृक् परिचरति कथान्तात् पादपद्मन्तु पद्मा यपि बतरुतचेता उत्तमश्लोकजल्पैः किमिह बहुषडङ्घ्रे गायसे त्वयि यदूना मधिपतिमगृहाणा मग्रतो नः पुराणम् विजय सख सखीनां गीयतां तत्प्रसङ्गः क्षपितकुचरुजस्ते कल्पयन्तीष्टमिष्टाः दिवि भुवि चरसायां का स्त्रियस्तद्दुरापाक् कपटरुचिरहास ब्रूविजृम्भस्य या स्युः चरणरज उपास्ति यस्य भूतिर्वयङ्का अपि च कृपणपक्षे युत्तमश्लोकशब्दः विसृज शिरसि पादं वेद्म्यहै चाटुकारै रनुनय विदुषस्ते भीत्य दौत्यैर्मुकुन्दात् स्वकृत इह विसृष्टा पत्यपत्यन्यलोका व्यसृजदकृतचेता किन्नु सन्धेयमस्मिन् मृगयुरिव कपीन्द्र स्त्रियमकृतविरूपां स्त्रीजितकामयानां बलिमपि बलिमात्वा वीष्टयध्वांशवद्यस्तदलमसितसाख्यै दुस्त्यजस्तत्कथार्थः यदनुचरितलीला कर्णपीयूषविप्रुट् सकृददनविधूत द्वन्द्वधर्माविनष्टा सपदि गृहकुटुम्बन् दीनमु सृज्य दीना बहव इह विहंगा भिक्षुचर्याय चरन्ति वयमृतमिव जिह्म व्यारुतं श्रद्दधानाक् कुलिकरुतमिवाज्ञाक् कृष्णवद्वो हरिण्यः ददृशुरसकृदीतात् तन्नखस्पर्शति व्रस् स्मररुज उपमन्त्रिन् भण्यतामन्यवार्ता प्रियसख पुनरागाः प्रियसा प्रीषितः किं वरय किमनुरुन्धे माननीयोऽसि मेऽङ्ग नयसि कथमिहास्मान् दुस्त्यजद्वन्द्वपार्श्वम् सततमुरसि सौम्यश् श्रीर्वधूसाकमास्ते अपिबत मधुपुर्या मार्यपुत्रोऽधुनास्ति स्मरति स पितृगेहान् सौम्यबन्धूंश्च गोपान् क्वचिदपि स कथानाक् किङ्करीणां गृणीते भुजमगुरुसुगन्धम् मूर्ध्न्यधास्यत्कदानु श्रीशुक उवाच अथोद्धवो निशम्यैवं कृष्णदर्शनलालसाः सान्त्वयन् प्रियसन्देशैर् गोपीरिदमभाषत उद्धव उवाच अहो यूयं स्म पूर्णार्था भवत्यो लोकपूजिताः वासुदेवी भगवती यासामित्यर्पितं मनः दानव्रततपोहोम जपस्वाध्यायसंयमैः श्रेयोभिर्विविधैश्चान्यैक् कृष्णे भक्तिर्हि साध्यते भगवत्युत्तमश्लोके भवतीभिरनुत्तमा भक्तिः प्रवर्तिता दिष्ट्या मुनीनामपि दुर्लभा दिष्ट्या पुत्रान् पतीन् देहान् स्वजनान् भवनानि च हित्वा वृणीत यूयत् कृष्णाख्यं पुरुषं परम् सर्वात्मभावोऽधिकृतो भवती नामधोक्षजे विरहेण महा महान्मीनुग्रहः कृतः। श्रूयतां प्रियसन्देशो भवतीनां सुखावहः। यमादायागतो भद्रा अहं भर्तुरहस्करः। श्रीभगवानुवाच भवतीनाव्वियोगो मे न हि सर्वात्मना क्वचित्। यथा भूतानि भूतेषु खं वाय्वग्निर्जलं महि, तथा है च मनः प्राण भूतेन्द्रियगुणाश्रयः। आत्मन्येवात्मनात्मानं सृजेहन्म्यनुपालये। आत्ममायानुभावेन भूतेन्द्रियगुणात्मना आत्मा ज्ञानमयशुद्धो व्यतिरिक्तो गुणान्वयः। सुषुप्तिस्वप्नजाग्रद्भिर्मायावृत्तिभिरीयते। येनेन्द्रियार्थान् ध्यायेत मृषा स्वप्नवदुत्थितः, तन्निरुन्ध्यादिन्द्रियाणि विनिद्रः प्रत्यपद्यत। एतदन्तःसमाम्नायो योगसाङ्ख्यं मनीषिणां, त्यागस्तपोदमः सत्यं समुद्रान्ता इवापगाः। यत्त्वहं भवतीनां वै दूरे वर्ते प्रियो दृशां, मनसन्निकर्षार्थं मदनुध्यानकाम्यया। यथा दूरचरे प्रेष्ठे मन आविश्य वर्तते, स्त्रीणाय च न तथा चेतस् सन्निकृष्टे क्षिगोचरे। मय्यावेश्य मनः कृत्स्नं विमुक्ताशेषवृत्तियत्। अनुस्मरन्त्यो मां नित्य मचिरान् मामुपैष्यथ। या मया क्रीडता रात्र्यां वनेऽस्मिन् व्रज आस्थिताः, अलब्धरासाः कल्याण्यो मा पुर्मद्वीर्यचिन्तया। श्रीशुक उवाच एवं प्रियतमादिष्ट मा कर्ण्यव्रजयोषितः। ता ऊचुरुद्धवं प्रीतास् तत्सन्देशागतस्मृतिः। गोप्य ऊचुः दिष्ट्याहितो हतः कंसो यदूनां सानुगोघकृत्। दिष्ट्याप्तैर्लब्धसर्वार्थैक् कुशल्यास्ति च्युतोऽधुना। कच्चिद्गदाग्रजसौम्यकरोति पुरयोषिताम् प्रीतिन्न स्निग्धसव्रीड हासोदारीक्षणार्चितः कथं रतिविशेषज्ञः प्रियश्च वरयोषिताम् नानुबध्येत तद्वाक्यैर्विभ्रमैश्चानुभाजितः अपि स्मरति नः साधु गोविन्दः प्रस्तुते क्वचित् गोष्ठीमध्ये पुरस्त्रीणाम् ग्राम्या स्वैरकथान्तरे ताक् किन्निशा स्मरति यासु तदा प्रियाभिर्वृन्दावनी कुमुदकुन्दशशाङ्करम् ये रेमे क्वणच्चरणनूपुररासगोष्ठ्या मस्माभिरीडितमनोज्ञकथक् कदाचित् अप्येष्यतीह दाशार्हस्तप्ता स्वकृतया शुचा सैजीवयन्नुनो गात्रैर्यथेन्द्रो वनमम्बुदैः कस्मात् कृष्ण इहायाति प्राप्तराज्यो हताहितः नरेन्द्रकन्या उद्वाय प्रीतस् सर्वसुरुद्रुतः किमस्माभिर्वनौकोभिरन्याभिर्वा महात्मनः श्रीपतेराप्तकामस्य क्रियेणार्थक् कृतात्मनः परं सौख्यं हि नैराश्यम् स्वैरिण्यप्याह पिङ्गला तज्जानतीनान्न कृष्णे तथाप्याशादुरत्यया क उत्सहीत सन्त्यक्तु मुत्तमश्लोकसंविदम् अनिच्छतोऽपि यस्य श्रीरङ्गान्नच्यवते क्वचित् सरिच्छैलवनोद्देशागावो वेणुरवा इमे सङ्कर्षणसहायेन कृष्णेनाचरिताः प्रभो पुनः पुनः स्मारयन्ति नन्दगोपसुतं बत श्रीनिकेतैस्तत्पदकैर्विस्मर्तुन्नैव शक्नुमः गत्या ललितयोदारहासलीलावलोकनैः माध्व्यागिरारुतधियक् कथन्तं विस्मरामहे हे नाथ हे रमानाथ व्रजनाथार्तिनाशन मग्नमुद्धर गोविन्द गोकुलवृजिनार्णवात् श्रीशुक उवाच ततस्ताक् कृष्णसन्देशैर्व्यपीतविरहज्वराः उद्धवं पूजयाय चक्रुर् ज्ञात्वात्मानमधोक्षजम् उवास कतिचिन्मासान् गोपीना विनुदैच्छुचः कृष्णलीला कथाङ्गायन् रमयामास गोकुलम् यावन्त्यहानि नन्दस्य व्रजीवात्सीत् स उद्धवः व्रजौकसां क्षणप्रायाण् यासन् कृष्णस्य वार्तया सरिद्वनगिरिद्रोणीर्वीक्षन् कुसुमितान् द्रुमान् कृष्णं संस्मारयन् रेणे हरिदासो व्रजौकसाम् दृष्ट्वैवमादिगोपीनां कृष्णावेशात्मविक्लवम् उद्धवः परमप्रीतस्तानमस्यन्निदै जगौ एताः परन्तनुभृतो भुवि गोपवध्वो गोविन्द एव निखिलात्मनिरूढभावाः वाञ्छन्ति यत् भवभियो मुनयो वयै च किं ब्रह्म जन्मभिरनन्तकथारसस्य क्वेमास्त्रियो वनचरीर्व्यभिचारदुष्टाक् कृष्णे क्व चैष परमात्मनिरूढभावः नन्वीश्वरोऽनुभजतो विदुषोऽपि साक्षात् श्रेयस्तनोत्यगदराज इवोपयुक्तः नायं श्रियोऽङ्ग उनितान्तरते प्रसादस्वर्योषितान्नलिनगन्धरुचाङ्कुतोऽन्याः रासोत्सवेस्य भुजदण्डगृहीतकण्ठ लब्धाशिषाय उदगान् व्रजबल्लवीनाम् आसामगोचरणरेणुजुषामहं स्यां वृन्दावने किमपि गुल्मलतौषधीनाम् या दुस्त्यजं स्वजनमार्यपथै चहित्वा भीजुर्मुकुन्दपदवीं श्रुतिभिर्विमृग्या या वै श्रियार्चितमजादिभिराप्तकामैर् योगेश्वरैरपि यदात्मनिरासगोष्ठ्याम् कृष्णस्य तत् भगवतश्चरणारविन्दन् न्यस्तं स्तनेषु विजहुः परिरभ्यतापम् वन्दे नन्दव्रजस्त्रीणां पादरेणुं भीक्ष्णशः यासां हरिकथोद्गीतं पुनातिभुवनत्रयं श्रीशुक उवाच अथ गोपीरनुज्ञाप्य यशोदानन्दमेव च गोपानामन्त्र्यदाशार्वो यास्यन्नारुरुहे रथम् तन्निर्गतं समासाद्य नानोपायनपाणयः नन्दादयोनुरागेण प्रावोचन्नश्रुलोचनाः मनसो वृत्तयो न स्युक् कृष्णपादाम्बुजाश्रयाः वाचोभिधायिनीर्नाम्नां कायस्तत्ब्रह्मणादिषु कर्मभिर्भ्राम्यमाणानाय यत्र क्वापीश्वरेच्छया मङ्गलाचरितैर्दानै रतिर्न कृष्णईश्वरे एवं सभाजितो गोपैक् कृष्णभक्त्या नराधिप उद्धवः पुनरागच्छन् मथुरां कृष्णपालिताम् कृष्णाय प्रणिपत्याह भक्त्युद्रेकं व्रजौकसां वसुदेवाय रामाय राज्ञे चोपायनान्यदात् इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे उद्धवप्रतियाने सत्त्वचत्वारिंशोऽध्यायः ॐ सर्वं श्रीकृष्णार्पणमस्तु।